Thank you. भगवद्गमः तया भूयात् मुद्दान्तम् भङ्क्त्वा भृक्षावसेदने।